इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधिः तिवारी। अथ वार्ताः। जम्मू कश्मीर प्रदेशे मेघस्फोटनेन भूस्खलनेन च पीडिते रामबन मण्डले अद्य पुनः साहाय्योद्धार कार्यम् आरभते। जम्मू श्रीनगर राष्ट्रिय राजमार्गस्य 44 इत्येतस्य पुनरुद्घाटनाय अधिकारिणः कार्यं कुर्वन्तः सन्ति। अयं हि महत्वपूर्णः मार्गः कश्मीरोपत्यकां देशस्य शेषभागेन सह संयोजयति। प्रचण्डवृष्टिः मेघगर्जनं तुषारवृष्टिः आकस्मिकजलप्लावनं च सम्पूर्णे हि प्रदेशे व्यापकीं क्षतिं कृतवन्तः। ह्यः रामबनमण्डले मेघस्फोटात् उद्भूतेन भूस्खलनेन च 3 जनाः मृताः। आरक्षकाणां राज्यापद्मोचनबलस्य नागरिकस्य QRTS इत्येतस्य सेनायाः च दलानि प्रभावितक्षेत्रेषु उद्धारकार्यस्य पुनःस्थापनकार्यस्य च कृते सक्रियरूपेण कार्यं कुर्वन्ति। प्रशासनेन स्थानीयाः जागरूकाः भवेयुः तथा च सर्वकारस्य सुरक्षोपदेशम् अनुसरन्तु इति आग्रहः कृतः अस्ति। प्रचण्डवृष्ट्या अद्य सम्पूर्णे हि मण्डले विद्यालयाः सर्वकारीयसंस्थाः च पिहिताः भविष्यन्ति। जनपद प्रशासनं प्रचण्डवृष्टेः परामर्शं प्राददात् रामबन नगरस्य उपायुक्तः बशीर उल्हक चौधरी इत्येषः अवदत् यत् अद्य प्रशासनस्य प्राथमिकं ध्यानं जम्मू श्रीनगर राष्ट्रिय राजमार्गस्य पूर्णतया पुनः उद्घाटनं भवतीति। अग्रिमासु 48 होरासु अधिकांशान् अवरुद्धान् मार्गान् निष्काशयितुं प्रयत्नाः प्रचलिष्यन्ति इति सः आश्वासितवान्। अमेरिकीयोपराष्ट्रपतिः जेम्स डेविड वेन्स इत्येषः अद्य प्रातःकाले नवदिल्लीं सम्प्राप्स्यति। असौ भारतस्य चतुर्दिवसीयाधिकारिकयात्रार्थम् आयाति। तेन साकम् अमेरिकादेशीया द्वितीया महिला उषा वेन्स तस्य च बालाः तथा च अमेरिकादेशस्य बहवः वरिष्ठाधिकारिणः चापि सहभूताः भविष्यन्ति। श्रीवेन्स इत्येषः अद्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह संवादं साधयिष्यति। संसूच्यते यत् एषा यात्रा उभयोः देशयोः द्विपक्षीयसम्बन्धानां प्रगतेः समीक्षां कर्तुम् अवसरं प्रदास्यति। उपराष्ट्रपतिः वेन इत्येतस्य प्रतिनिधिमण्डलस्य सदस्याः च नवदिल्ल्याम् अन्येषु कार्यक्रमेषु अपि भागग्रहणं करिष्यन्ति। अमेरिकादेशं प्रति प्रत्यागमनात् पूर्वम् असौ जयपुर आगरा नगरे प्रति भ्रमणमपि करिष्यति। प्रधानमन्त्री नरेन्द्रमोदी सऊदी अरब देशस्य द्विदिवसीय यात्रायां श्वः जेद्दाह नगरं सम्प्राप्स्यति, या हि चतुर्षु दशकेषु भारतीय नेतृणां सऊदी अरबस्य वाणिज्यिक केन्द्रस्य प्रथमा यात्रा अस्ति इति। एषा उच्चस्तरीय यात्रा भारत सऊदी अरब सम्बन्धानां समारभ्यात् आर्थिक रक्षा सांस्कृतिक आयामेषु विस्तृत रणनीतिक सहभागित्वं यावत् उल्लेखनीयं परिवर्तनं रेखाङ्कयति। प्रतिपाद्यते यत् एषा महत्वपूर्णा यात्रा अस्ति, यस्य उद्देश्यं द्वयोः देशयोः सामरिक सहभागितां संवर्धनमिति वर्तते। केन्द्रीय सूचना प्रसारण मन्त्री अश्विनी वैष्णवः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रत्यक्ष लाभ अन्तरणस्य DBT इत्येतस्य उपक्रमस्य स्रावस्य न्यूनीकरणं कृत्वा 48,000,000,000,000 रूप्यकाणि रक्षितानि। भारतस्य DBT व्यवस्थायाः क्वांटिटेटिव असेसमेंट इति शीर्षकं नीतिपत्रम् उद्धृत्य श्री वैष्णवः सामाजिक संचार पटले उक्तवान् यत् अस्य कल्याण वितरण प्रारूप अन्तर्गतं लाभार्थीनां व्याप्तिः 16 गुणाधिकं यावत् संवर्धिता अस्ति। IPL इत्येतस्यां 20-20 क्रिकेट मालिकायां गतरात्रौ क्रीडांगणे मुम्बई इण्डियन्स दलेन चेन्नई सुपर किंग्स दलं 9 पराजितम्। अपरत्र जाते द्वितीये द्वन्द्वे चण्डीगढ नगरे रॉयल चैलेंजर्स बैंगलुरु दलं पंजाब किंग्स दलं 7 पराभूतम्। तत्रैव अद्य कोलकातानगरे ईडन गार्डन्स क्रीडांगणे कोलकाता नाइट राइडर्स गुजरात टाइटन्स दलयोर्मध्ये प्रतिस्पर्धा क्रीडिष्यते इति वार्ताः।